ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಪಾಹುಭ್ಯಾಮುತ ತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾ ಶರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರ ಘೋರಾ ಪಾಪಕಾಶಿನಿ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಷಿ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇ ವಿಭಶ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಸಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನ ಸರ್ವವಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಅಯೇಗಶ್ಚ ಸರ್ವಾನ್ ಜಂಬಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಭವ್ರೋ ಸ್ವಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರುತ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇರ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನ ಸ್ವಮುಭಯೋರಾತ್ರಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವೀರ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನ ಶೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೇ ತಿರ್ಮೀರುಷ್ಟವ ಹಸ್ತೆ ಬಭೂವತಿ ಧನುಃ ಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಣವೇ ಉಭಾಭ್ಯಾಮುದೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯಿಷುಧಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾ ಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्मिञ्जरायत्वे श्रीमते पथिनां पतये नमो नमो बभ्लुषाय विव्याधिने नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथाविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो लोहिताय स्तवतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय नन्दयते पत्तीनां पतये नमो नम कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम ककुवाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते सायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकावेभ्यो जिगागुं सद्भ्यो मुष्णताम् पतये नमो नमो शिवद्भ्यो नक्तं चरभ्य प्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषु मद्भ्यो धन्वावेभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्यो विसृजभ्यश्च वो नमो नमो यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमः स्थिष्टद्भ्यो दावभ्यश्च वो नमो नमः सभाव्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाव्यस्त्रिगुं हतेभ्यश्च वो नमो नमो ग्रस्येभ्यो ग्रस्वपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः चुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतेभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः रक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वरेभ्यश्च वो नमो नम स्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेव्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च देव्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च वुद्नेयाय च नमः सोऽव्याय च प्रतिसल्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरताय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः गोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेत्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च वेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रवत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च मुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्याय च नमः पर्ण्याय च वर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा वेन्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः वेषजे शिवा रुद्रस्य वेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसेकवर्दिने क्षयद्वेराय प्रमरामहे मतिम् यथा नश्रमसद्विपदे चतुष्पदे विश्वम् पुष्टम् गामे अस्मिन्ननातुरम् मृडानोरुद्रोतनोमयस्कृति क्षयद्वेराय नमसाभिधेमते यच्चम् जयोश्च मनुरायजे पिता तदश्याम तव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीशः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पूरुषग्ने क्षयद्वीराय स्वम् नमस्मेते अस्तु रक्षा च नो अदि च देव ब्रूयदा च नः शर्व यच्च द्विवर्हाः सुहि श्रुतम् गर्त सदयुवानम् मृगण्ण भीममुपहत्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरगायोः अवस्तिरा मगवद्भ्यस्तनुष्वमीरस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन् निदाय कृत्तिम् वसा न आचरपि नाकम् विव्रदागहे विकिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् तेषाम् सहस्रयो जने वधन्वानि तन्मसि अस्मिन्महत्यन्नवेन्तरिक्षे भव अदि नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासकवर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पताम् पतिरक्षय ऐलवृतायव्युधः ये तीर्थानि प्रचलन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्तिरे एषागुम् सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये अन्तरिक्षे ये दिव्येषामन्नम् भातो वर्षविषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोर्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो वेष्टितम् भोजम् वेददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नौ यो अप्सु य औषधीषु यो रुद्रो विश्वामुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनानेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु यस्वशस्वदन् आयो विश्वस्य क्षयति मे सलस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो हिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेश यो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञात्रं च मे सोश्च मे प्ररोश्च मे शीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुखम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणा त्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो सूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खन्फन्म्रसे ॐ शान्ति 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 ॐ भूमिर्भूम्नाद्योर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदिते निमन्नादमन्ना निहायादधे आयङ्गौ पृश्निरक्रमीदसनन् मातरम् पुनः पितरम् च प्रयन्सुवः निगुंशद्धाम विराज दिवाक्पतङ्गाय शिश्रिये
नत्यस्य वहन्युभिः अस्य प्राणादपानत्यन्तश्चरति लोचना व्यख्यन्महिषस्वः यद्वा क्रुद्धः परो वपमन्युना यदवर्या सुकल्पमग्ने तत्तव पुनस्थो दीपयामसे यत्ते मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवा वसवस्य समाभरन् मनोज्योतिर्जुषतामाद्यम् विच्छिन्नम् यज्ञगुम् समिमम् ददातु बृहस्पतिर्तनुतामिमम् नो विश्वे देवा इहमादयन्ताम् मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ब्रह्मवर्चसः पितृणागुश्रोत्र चक्षुर्मनः देवी हिरण्यगर्भिणि देवी प्रसोवरी सदने सत्यायने सीता समुद्रवती सावित्री हनो देवी मह्यङ्गी महे धरणी महो व्यतिष्ठा शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषिणी इन्द्रपत्नी व्यापिनी सुरसरदिहा वायुमते जलशयनि श्रियम् धाराजा सत्यम् द्वो परिमेदिनी सौपरिधत्तम् परिगाया विष्णुपत्नी महीम् देवीम् माधवीम् माधवप्रियाम् लक्ष्मी प्रियसखीम् देवीम् नमाम्यच्युतवल्लभाम् धनुर्धराय विद्महे सर्वसिद्ध्यै च धीमहि तन्नोधरा प्रचोदयात् महीम् देवीम् विष्णुपत्नीमयूर्याम् प्रतीचीमेनागुम् हविषा यजामः मेधा विष्णुरुर्गायो विचक्रमे महीम् दिवम् पृथिवीमन्तरिक्षम् तच्छौणैतिश्रव इच्छमाना पुण्यङ्गुश्लोकम् यजमानाय कृण्वते ॐ शान्ति शान्ति शान्तिः ॐ अहम् रुद्रेभिर्वसोभिश्चरा महमादित्यैरुत विश्वदेवैः अहम् मित्रावरुणो भाविभम्यहमिन्द्राग्नि अहमश्विनो भा अहम् सोमामाहनसम् विभर्म्यहम् त्वष्टारमुतपूषणम् भगम् अहम् दाधामि द्रवीणम् हविष्मातेषु प्रावे यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकितुषी प्रथमा यज्ञियानाम् ताम् मा देवा व्याददु पुरुत्रा भूरिस्थात्राम् भूर्या वेशयन्ते मया सो अन्नामत्ययो विपश्याति य प्राणीति यै शृणोत्युक्तम् अमन्तवो मान्तौ भक्षयन्ति श्रुतिश्रोतस्रद्दिवन्ते वदामि अहमेव स्वयमिदम् वादामि जुष्टम् नैवेभिः ऋतमानुषेभिः यम् कामयेतम् तामुग्रम् क्रोणोमि तम् ब्रह्माणम् तम् ऋषिम् तम् सुमेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्मद्विषे शर मेहन्त वाऊ अहम् जनाय समदम् कृणोम्यहम् न्यावा पृथिवी आविवेशा अहम् सोमे पितरामस्य मूर्धन् मम योनि रप्स्वा अन्तः समुद्रे ततो वितिष्ठे भुवनानु विश्वोत्तामोन्द्याम् प्रश्नोपस्पृशामि अहमेव वाता इव प्रवाम्य रभामाण भुवानानि विश्वा परो दिवा पर एना पृथिव्ये तावाति महिना संबाभुवा।
ॐ शान्ति शान्ति शान्ति। ॐ हिरण्यवर्णाश्रुचय पावकायासु जात कश्यपोयासिन्द्रः अग्नेया गर्भम् दधिरे विरूपास्तान आमस्य गुस्यो न भवन्तु। यासागुम् राजा वरुणो याति मध्ये सत्यानुते अवपश्यम् जनानाम् मधुश्रुचश्रुचयो या पावकास्तान आमस्य गुस्यो न भवन्तु। यासाम् देवादिविकृण्वन्ति भक्षय्या अन्तरिक्षे बहुधा भवन्ति। या पृथिवीम् पयसोन्दन्ति शुक्रास्तान आमस्य गुस्यो न भवन्तु। शिवेन मा चक्षुषा पश्यतापशिवया तनुवोपसृशत त्वचम् मे सर्वागुम् अग्निगुम् रप्सुषदो हुवे वो मयि वर्चो बलवोजो निधत्ता। पवमानः सुवर्जनः पवित्रेण विचर्षणिः यप्पोता स पुनातु मा पुनन्तु मा देव जनाः पुनन्तु मनवो धिया पुनन्तु विश्व आयवः। जातवेद पवित्रवत् पवित्रेण पुनाहि मा शुक्रेण देवदेद्यत् अग्ने क्रत्वा क्रतुगुम्रनो यत्ते पवित्रमर्चिषे अग्ने विततमन्तरा ब्रह्म तेन पुनीमहे। उमाभ्याम् देव सवितः पवित्रेण सवेन च इदम् ब्रह्म पुनीमहे। वैश्वदेवी पुनति देव्यागात् यस्यैवम् वेस्तनुवो वेतपृष्ठाः तया मदन्तः सधमाग्नेषु वयग्गुस्याम पतयोरधीणाम् वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेने शिरोमयो भूः द्यावा पृथिवी पयसापयोभिः ऋतावरि यज्ञिये मा पुनीताम् बृहद्भिः सवितस्तृभिः वर्षिष्ठैर्देवमन्मभिः अग्ने दक्षैः पुनाहि मा येन देवा अपुनता येनापो दिव्यङ्कषः तेन दिव्येन ब्रह्मणा इदम् ब्रह्म पुनीमहे। यः पावमानि रध्येते ऋषिभिः संभृतगुम्रसम् सर्वगुंसभूतमश्नाते स्वहितम् मातरिष्वना पावमानेर्यो अध्येते ऋषिभिः संभृतगुम्रसम् तस्मै सरस्वते दुहे क्षीरगुम् सर्पिर्मधोदकम् पावमाने स्वस्त्ययनीः सुदुधाहि प्रयस्वतेः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुम् हितम् पावमानेर्दिशन्तु नः इमम् लोकमथो अमुम् कामान् समर्थयन्तु नः। देवैर्देवैः समाभृताः पावमाने स्वस्त्ययनीः सुदुखा हि घृतश्च्युतः ऋषिभिः संभृतो रसः ब्राह्मणेष्वमृतगुम् हितम् येन देवा पवित्रेण आत्मानम् पुनते सदा तेन सहस्रधारेण। भावमान्यः पुनन्तु मा राजापत्यम् पवित्रम् शतोद्यामगुम् हिरण्मयम् तेन ब्रह्मविदो वयम् भूतम् ब्रह्म पुनीमहे। इन्द्रः सुजीति सहमा पुनातु सोमः स्वस्त्या वरुणः समीच्या यमो राजा प्रवृणाभिः पुनातु माम्
ज्ञातवेद मोर्जयन्त्या पुनातु भूर्भुवः सुवः तच्छयोरावृणीमहे धातुर्यज्ञाय धातुर्यज्ञपतये नैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे सञ्चतुष्पदे ॐ शान्ति 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 यो ब्रह्मा ब्रह्मण उज्जहार प्राणेशिर कृत्तिवासा पिनाकी ईशानो देवस्सन आयुर्दधातु तस्मै जुहोमिह विशागृतेन विभ्राजमान शरीरस्य मध्याद्रोचमानो घर्मरुचिर्य आगात् स मृत्युपाशानपनुद्य घोरा निहायुषेनो ऋतमत्तु देवः ब्रह्म ज्योतिर्ब्रह्म पत्नीषु गर्भम् यमादधात् पुरुरूपम् जयन्तम् सुवर्णरम्भग्रहमर्कमर्चम् तमायुषे वर्धयामो घृथेन श्रियम् लक्ष्मीमौबलामम्बिकाङ्गाम् षष्ठीञ्चयमिन्द्रसेनेत्युलाहुः ताम् विद्याम् ब्रह्मयोनिगुंसरूपामिहायुषे तर्पयामो घृतेन दाक्षायण्यः सर्वयोन्यः स योन्यः सहस्रशो विश्वरूपा विरूपाः ससूनवः सपतयः स योत्या आयुषेणु कृतमिदम् जुषन्ताम् दिव्यागण बहुरूपा पुराण आयुश्चिदो न प्रमथ्नन्तु वीरान् नेभ्यो जुहोमि बहुधा घृतेन मान प्रजागु नैरिषोमोत वीरान् एकः पुरस्तात्यैदम् बभूवयतो बभूव भुवनस्य गोपाः यमप्येति भुवनगुंसाम् पराय स नो हर्कृतमिहायुषे तु देवः वसूनृद्रानादित्यान् मरुतोऽथ साध्यान् ऋभून् यक्षान् गन्धर्वागुश्च पितृगुश्च विश्वान् भृगून् सर्पागुश्चाङ्गिरसोऽथ सर्वान् गृरगुम् हृत्वा स्वायुष्य महयामशश्वत् विष्णो त्वन्नो अन्तमः शर्म यच्च सहन्त्या प्रते धारामदुश्रुत उत्सम् दुःप्रते अक्षितम् ॐ शान्ति शान्ति शान्तिः ॐ तेजोति तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वान्विश्वत प्रत्यङ्ग तेजसा सम्पिवृद्धिमा ओजोऽसि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्छिरो अस्तु मे ओजस्वान्विश्वत प्रत्यङ्ग ओजसा सम्पिवृद्धिमा पयोऽसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्छिरो अस्तु मे पयस्वान्विश्वतः प्रत्यङ्ग पयसा सम्भिवृद्धिमा आयुरसि तत्ते प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान्विश्वतः प्रत्यङ्ग आयुषा सम्विवृद्धिमा इममग्न आयुषे वक्षसे कृते हृयगुम् हेतो वरुण सोमराजन् मा ते वा स्म अदिते शर्म यच्च विश्वे देवा जगदस्थिर्यथा सत् आयुरति विश्वायुरति सर्वायुरति सर्वमायुरसि यतो वाचो मनोजवाः यतः क्षरन्ति सिन्धवः तासाम् त्वा सर्वासागुम् रुचा अभिषिञ्चामि वर्चसा समुद्र इवासि ब्रह्मणा सोम इवास्यताम्यः अग्निरिव विश्वतः प्रत्यङ् सूर्य इव ज्योतिषा विभोः अवाम्यो द्रवणेन सह तमहमस्मानुष्यायणाय तेजसे ब्रह्मवर्चसाय गृह्णामि अवाम्य ऊर्मौरसः तमहमस्मानुष्यायणाय ओजसे वीर्याय गृह्णामि अवाम्यो मध्यतोरसः तमहमस्मानुष्यायणाय पुष्टये प्रजननाय गृह्णामि अवाम्यो यज्ञियोरसः तमहमस्मानुष्यायणाय आयुषे दीर्घायुत्वाय गृह्णामि ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवामसो मम राति यतो निदहति वेदः सरः परिषदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्मफलेषु जुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा पोश्च पृथ्वी बहुलान उर्वि भव तोकायतनयाय शय्योः विश्वानिनो दुर्गः जातवेदः सिन्धुन्न नाव दुरितातिपर्षे अग्ने अत्रिवन्मनसा गृणानो अस्माकम् बोध्यविता तनूनाम् ऋतनाधितगुम् सहमानमुग्रमग्निगुम् हुवेम परमासधस्तात् स नः परिषदति दुर्गाणि विश्वा क्षाम देवो अतिदुरितात्यग्निः प्रत्तोषि कमेत्यो अध्वरेषु सनाच होता नव्यश्च सत्से स्वाजाग्ने तनुवम् विप्रयस्वा स्मभ्यम् च सौभगमायजस्वा गोभिर्युष्टमयुजो निषिक्तम् तवेन्द्रविष्णो ननु सञ्चरेवा नाकस्य पृष्ठमभिसंवसानो वैष्णवीम् लोक इह मादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ईशान सर्वविद्यानामीश्वर सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्म शिवो मे अस्तु सदा शिवो तन्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवि वचक्षुरातम् तद्विप्रासो विपन्यवोजाग्रवागुम् सत्समिन्धते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు శాంతి శాంతి శాంతి.